ఉదయం ఆకాశవాణి. సంప్రతి వార్తాః శ్రూయంతాం. ప్రవాచిక సాధనా శర్మ. ప్రథమం ముఖ్యః వార్తాః. महाराष्ट्रे झारखंडे च विधानसभा निर्वाचनस्य मतदानस्य तिथिः समीपं तथा प्रचाराभियानं तीव्रतरम्. प्रधानमंत्री नरेन्द्र मोदी महाराष्ट्रस्य अकोला नांदेडे इत्यत्र जनसभां संबोधयिष्यति. केन्द्रीय रसायन उर्वरक मंत्री जगत प्रकाश नड्डा चिकित्सा संसाधन उद्योगस्य सुदृढीकरणाय योजनां प्रारब्धवान्. भारतीय ऋतु विभागेन संभावना प्रकटिता तमिलनाडु पुडुचेरी कराईकल केरल माहे इत्यादिषु स्थानेषु विद्युता सह अत्यधिक वृष्टिः. डर्बन नगरे दक्षिण अफ्रीका देशेन सह भारत क्रीडयोः मध्ये भारतदलं विजितम्. इदानीं वार्ताः विस्तरेण. महाराष्ट्रे झारखण्डे च विधानसभा निर्वाचनस्य मतदानस्य तिथिः यथा यथा समीपम् आगच्छति तथा तथा प्रचाराभियानं तीव्रतरं जायते. सर्वेषां राजनैतिक दलानां शीर्षनेतारः मतदातॄन् आकर्षयितुम् उभयोः राज्ययोः प्रचारकार्ये व्यस्ताः सन्ति. भारतीय जनता पार्टी इति दलस्य वरिष्ठः नेता प्रधानमंत्री नरेन्द्र मोदी यः महाराष्ट्रस्य नासिक नगरे जनसभां संबोधितवान्. असौ उक्तवान् यत् केन्द्रे राष्ट्रिय लोकतांत्रिक गठबंधनं अर्थात् एनडीए सर्वकारः राज्यस्य महायुति सर्वकारश्च वंचितानां जनानां कल्याणाय प्रतिबद्धौ स्तः. श्री मोदिना उक्तं यत् राज्ये उज्ज्वल योजनायाः अन्तर्गतं राज्ये 50 लक्ष महिलाः निःशुल्कं एलपीजी इत्यनेन वात सन्द्रेण लाभान्विताः. हर घर जल योजना, प्रत्येकं गृहं जल योजना इति इत्यस्य अन्तर्गतं सपाद 1 कोटिभ्यः अधिकानि गृहाणि नलिका जलेन संयुक्तानि सन्ति. केन्द्र सर्वकारस्य महाराष्ट्रे महायुति सर्वकारस्य च योजनानां विषये श्री मोदी अवदत् यत् महाराष्ट्रस्य कृषकाणां कृते पीएम किसान योजनायाः नमो शेतकरी योजनायाश्च लाभाः लभ्यन्ते. पूर्वं श्री मोदी धूल नगरे निर्वाचन सभां संबोधितवान्. झारखण्डे अपि निर्वाचन प्रचाराः प्रचलति. झारखण्डस्य सिमडे निर्वाचनसभायां कांग्रेस दलस्य वरिष्ठ नेत्रा राहुल गांधिना भाजपादलम् आरोपितं यत् दलम् आदिवासीजनानां जलं वनं भूमिं च हर्तुं प्रयत्नं करोति. केन्द्रीय रसायन उर्वरक मंत्री जगत प्रकाश नड्डा नवदिल्ली नगरे चिकित्सा संसाधन उद्योगस्य सुदृढीकरणाय योजनां प्रारब्धवान्. अस्मिन् अवसरे रसायन उर्वरक राज्यमंत्री अनुप्रिया पटेलः, औषध विभागस्य सचिवः अरुणीश चावला च उपस्थिताः आसन्. भारतीय ऋतु विभागेन संभावना प्रकटिता यत् तमिलनाडु पुडुचेरी कराईकल केरल माहे इत्यादिषु स्थानेषु विद्युता सह अत्यधिक वृष्टिः भविष्यति. एतदतिरिक्तं हिमाचल प्रदेशे आगामि दिनद्वयं यावत् सघन कुज्झटिका स्थास्यति. व्यावसायिक न्यायालय संशोधन विधेयकस्य 44-2000 विषये प्रशासनेन जनानां उपायाः प्रतिक्रियाश्च याचिताः. डर्बन नगरे दक्षिण अफ्रीका देशेन सह चतस्रीणाम् अन्ताराष्ट्रिय 2020 अर्थात् 20-20 क्रिकेट स्पर्धा श्रृंखलासु प्रथमस्यां 20-20 क्रिकेट क्रीडायां भारतेन दक्षिण अफ्रीका दलं 160 धावनांकानां पुरस्सरं पराजितम्. भारतेन 2+200 धावनांकानि अर्जितानि. तत्रैव दक्षिण अफ्रीकया 41+100 धावनांकानि अर्जितानि इति वार्ताः.